इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेशस्य पलनाडु मण्डलस्य चिलाकलूरीपेटा नगरे सभायां भागग्रहणं करिष्यति। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः उक्तवान् यत् भारतं स्वनिर्माणक्षेत्रे अधिकं ध्यानं दद्यात् चीनदेशापेक्षया सह स्पर्धां कर्तुम्। दिल्ली जलबोर्ड प्रकरणे दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरीवालं समनमिति प्रसार्य श्वः परिपृच्छायै आहूतवान्। भारतीय क्रीडकः गुलवीर सिंहः कैलिफोर्निया इत्यत्र 10,000 मीटर धावन स्पर्धायां द्वितीयं स्थानं प्राप्तवान्। अपि च महिला प्रीमियर लीग क्रिकेट क्रीडायाः अन्तिमं क्रीडा स्पर्धा अद्य रॉयल चैलेंजर्स बैंगलोर दलस्य दिल्ली कैपिटल्स दलं च मध्ये। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य आन्ध्रप्रदेशस्य पलनाडु मण्डलस्य चिलाकलूरीपेटा नगरे सभायां भागग्रहणं करिष्यति। सः अद्य राष्ट्रिय लोकतान्त्रिक गठबन्धनस्य एनडीए भारतीय जनता पक्षस्य तेलुगु देशम पक्षस्य जनसेनापक्षस्य च घटकदलानां प्रतिनिधीनां सभायाम् अपि च सम्मिलितः भविष्यति। लोकसभा निर्वाचनमतिरिच्य आन्ध्रप्रदेशे अपि राज्य विधानसभा निर्वाचनं भविष्यति। तेलुगु देशदलं पञ्चवर्षानन्तरम् अद्यावधौ पुनः एनडीए पक्षे सम्मिलितं जातम्। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः उक्तवान् यत् भारतेन चीनदेशेन सह स्पर्धां कर्तुं स्वनिर्माणक्षेत्रे अधिकं ध्यानं दातव्यम्। एकस्य वार्ताहर समूहस्य सम्मेलने सः अवदत् यत् चीनदेशेन सह न केवलं सीमविषयाः सन्ति अपितु बहवः आर्थिकविषयाः अपि सन्ति। डॉ जयशंकरः अवदत् यत् चीनस्य प्रतिकारः केवलं सशक्त अर्थव्यवस्थायाः कृते एव कर्तुं शक्यते। स अवदत् यत् भारतेन केवलं गतदशके एव स्वस्य निर्माणक्षेत्रे ध्यानं प्रदत्तमस्ति। प्रवर्तन निदेशालयः दिल्ली जलबोर्ड इत्यत्र अनियमितता सम्बद्धे धन प्रवञ्चना प्रकरणे दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरीवालं समनम् इति प्रसार्य श्वः परिपृच्छायै आहूतवान्। श्रीकेजरीवालं धनशोधन निवारण अधिनियमस्य अन्तर्गतम् वक्तव्यं पञ्जीकर्तुम् उक्तवान्। इदं द्वितीयं प्रकरणम् अस्ति यदा केजरीवालं धनशोधन प्रकरणे समनम् इति प्रसारितम्। निदेशालयेन अष्टवारं आबकारी नीति सम्बद्ध प्रकरणे परिपृच्छायै समन इति प्रसारितम्। नवमवारं प्रसार्य मार्चमासस्य एकविंशतितमे दिनांके प्रस्तोतुमुक्तम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममे अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय सेनायाः एकं दलं सैन्याभ्यासार्थं सेशेल्स नगरं प्रति प्रस्थितः अस्ति। अयं अभ्यासः मार्चमासस्य 18 दिनांकात् मार्चमासस्य 27 दिनांक पर्यन्तं प्रचलिष्यति। एकाधिकद्विसहस्रतमवर्षात् आरभ्य प्रतिद्वितीय वर्षे द्वयोः देशयोः मध्ये संयुक्त सैन्याभ्यासस्य आयोजनं भवति। अस्मिन् वर्षे भारतपक्षतः गोरखा राइफल्स इति सैन्य समूहात् 45 सैनिकाः भागं गृह्णन्ति। रक्षामन्त्रालयानुसारम् अस्य अभ्यासस्य उद्देश्यं शान्तिरक्षण अभियानाय समन्वयेन सह कार्यं कुर्वन्तः कर्मकर्तारः च कौशलेषु निपुणतां प्राप्नुयुः। एतदतिरिच्य अयं अभ्यासः द्वयोः देशयोः सैन्यसम्बद्धान् अपि सुदृढं करिष्यति। सममेव उभयो देशयोः सेनाः परस्परं उत्तमकार्यशैल्याः अनुभवं प्राप्तुं समर्थाः भविष्यन्ति। अभ्यासे परिनगरीय वातावरणे दुष्करघटनानां निवारणार्थं कौशलस्य विषये विशेषम् अवधानं भविष्यति। चतुर्ष राज्येष् लोकसभा निर्वाचनस्य विधानसभा निर्वाचनस्य च घोषणायाः अनन्तरं निर्वाचनायोगेन आदर्श आचार संहितायाः प्रावधानानां प्रभावीरूपेण कार्यान्वयनार्थं निर्देशाः प्रदत्ताः। सर्वेषां राज्यानां मन्त्रिमण्डल सचिवं मुख्यसचिवानां मुख्य निर्वाचन पदाधिकारिणां च कृते लिखितपत्रे आयोगेन उक्तं यत् कोषस्य व्ययेन सर्वकारस्य उपलब्धीनां प्रकाशनम् इलेक्ट्रॉनिक मुद्रित माध्यमेषु कोऽपि विज्ञप्तिं न प्रख्यापयिष्यति। तत्र उक्तं यत् निर्वाचन घोषणायां तत्क्षणमेव सर्वकारस्य उपलब्धीनां प्रदर्शनं यत्किमपि विज्ञापनम् आहर्तुं वा स्थगनं कर्तुं मुख्य निर्वाचन पदाधिकारिणः जिला निर्वाचन पदाधिकारिणः च तात्कालिकं क्रियान्वयनं कर्तुं शक्नुवन्ति। सीईओ इत्यनेन राज्य विभागस्य अन्तर्जालीय पटल माध्यमेन कस्यापि राजनैतिक पदाधिकारिणः छायाचित्रम् अपाकर्तुं वा गोपनार्थं तात्कालिकं क्रियान्वयनं कर्तुं शक्यते। आयोगेन उक्तं यत् निर्वाचन राज्यानां अन्तर्जालीय पटले आह्वान केन्द्रे च परिवेदना निवारणतन्त्रम् अपि भविष्यति। कॉल सेंटर अर्थात् जनसूचना केन्द्रे जनेभ्यः सहायतार्थं निःशुल्क संख्या अस्ति 1950। पुनरेकवारं निःशुल्क संख्या अस्ति 1950। निर्वाचनायोगेन सर्वोच्च न्यायालयस्य वैध संकल्पनायाः प्रपत्रेण प्राप्तं अन्तर्जालीय सूचना प्रपत्रम् अद्य निज अन्तर्जालीय तन्त्रांशे स्थापितमस्ति। एतत् सूचनात्मकं प्रपत्रं निर्वाचन आयोगस्य अन्तर्जालीय तन्त्रांशे www.eci.gov.in/candidate-political-party इति तन्त्रांशे द्रष्टुं शक्यन्ते। निर्वाचनायोगेन प्रोक्तं यत् सर्वोच्च न्यायालयस्य निर्देशानुसारं राजनैतिक दलानां निर्वाचन सम्बद्ध सूचना प्रपत्रं गुप्तमाध्यमेन प्रत्यावर्तितमस्ति। ऋतुविज्ञान विभागानुसारं अद्य पश्चिमबंगस्य गंगाक्षेत्रेषु ओलावृष्टि वज्रपात च सम्भाव्यते। अस्मिन् क्षेत्रे आगामि चतुर्दिनानि यावत् वज्रविद्युत् प्रचण्ड वायुना सह वर्षा सम्भवति। झारखण्ड ओडिशा विदर्भ छत्तीसगढ़ पूर्व मध्यप्रदेश इत्यादि क्षेत्रेषु च मार्च मासस्य विंशतिः दिनांक पर्यन्तं गर्जना विद्युत प्रचण्ड वायुना च सह वृष्टिः भवितुं शक्नोति। आइसलैंड देशस्य रेजेन्स प्रायद्वीपे ज्वालामुखी विस्फोटानन्तरं दक्षिणीय आइसलैंड इत्यत्र घोषणा कृता। गत दिसम्बर मासात् चतुर्थं वारं प्रायद्वीपे ज्वालामुखी विस्फोटो अभवत्। विस्फोटे अधिकमात्रायां धूमः अग्निशेषः वितरितः। इमं पश्यन् अत्रत्येन लोकप्रियस्थलेन ब्लू लैगून इत्यनेन सह निकटवर्तिनि क्षेत्राणि रिक्तानि कारितानि। भारतीय क्रीडकः गुलवीर सिंह कैलिफोर्निया इत्यत्र सैन जुआन कैपिस्ट्रानो इत्यत्र पुरुषाणां 10,000 मीटर धावन स्पर्धायां द्वितीयं स्थानं प्राप्तवान्। सः इमं धावनं 27:41.81 पूर्णं कृतम्। महिला प्रीमियर लीग क्रिकेट क्रीडायाः अन्तिमं क्रीडास्पर्धा अद्य रॉयल चैलेंजर्स बैंगलोर दलस्य दिल्ली कैपिटल्स दलस्य च मध्ये क्रीडिष्यते। स्पर्धेषा सायं 7:30 नवदिल्ल्याः अरुण जेटली प्रांगणे भविष्यति। मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्री नरेन्द्र मोदी अद्य आन्ध्रप्रदेशस्य पलनाडु मण्डलस्य चिलाकलूरिपेटा नगरे सभायां भागग्रहणं करिष्यति। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकर उक्तवान् यत् भारतं स्वनिर्माण क्षेत्रे अधिकं ध्यानं दद्यात् चीनदेशापेक्षया सह स्पर्धां कर्तुम्। प्रवर्तन निदेशालय दिल्ली जल बोर्ड प्रकरणे दिल्ल्या मुख्यमन्त्रिणम् अरविन्द केजरीवाल समनम् इति प्रसारे श्व परिपीक्षायै आहूतवान्। भारतीय क्रीडकः गुलवीर सिंह कैलिफोर्निया इत्यत्र 10,000 मीटर धावन स्पर्धां द्वितीयम्।